अथ चतुर्थोऽध्यायः श्रीभगवान् उवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययं विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत् एवं परम्परा प्राप्ता इमं राजर्षयो विदुः सकालेन महता योगो नष्टा परन्तपा स एवायं मया तेद्या योगप्रोक्ता पुरातनः भक्तोऽसि मे सखा चेति रहस्यम् एतदुत्तमम् अर्जुन उवाच अपरं भवतो जन्म परं जन्मा विवस्वतः कथमेतद्विजानीया त्वमादौ प्रोक्तवानिति श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेत्ता परन्तप अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवामात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारता अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्यम् एवं योपेति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन वीतरागभयक्रोधा मन्मया मामुपाश्रिताः बहवो ज्ञानतपसा भूता मद्भावमागता ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम वर्तानुवर्तन्ते मनुष्या पार्थ सर्वशः काङ्क्षतः कर्मणां सिद्धिं यजन्ता इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वर्ण्यं मया सृष्टं गुणकर्मा विभागशः तस्य कर्तारमपि मां विद्यकर्तारमव्ययं न मां कर्माणि लिम्बन्ति न मे कर्म फले स्पृह इति मां यो विजानाति कर्मभिर्न सपद्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतं किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे अश्वात् कर्मणो ह्यपि बोधव्यं बोधव्यं च विकर्मणः अकर्मणश्च बोधव्यं गहना कर्मणो गतिः कर्मण्यकर्मय पश्ये अकर्मणि च कर्मयः स बुद्धिमान् मनुष्येषु स युक्त कृत्स्नकर्मकृत् यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता ज्ञानाग्नि दग्धकर्माणां तमाहू पण्डिताम्बुधा त्यक्त्वा कर्मा प्रलासन्वम् नित्यतृप्तो निराश्रयः कर्मण्यपि प्रवृत्तोऽपि नैव किञ्चित् करोति सः निराशीर्यतचित्तात्मा त्यक्तः सर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् यदृच्छालापसन्तुष्टो द्वन्द्वाधीतो विमत्सरः समसिद्धौ असिद्धौ च कृत्वा पीनान्निबध्यते गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः चरता कर्म स समग्रं प्रवरीयते ब्रह्मार्पणं ब्रह्महवे ब्रह्माग्नो ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना दैवमेवापरे यज्ञं योगिना पर्युपासते ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति श्रोत्रादीन्द्रियानन्ये संज्ञाग्निषु जुह्वति शब्दादीन् विषयानन्या इन्द्रियाग्निषु जुह्वति सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगवाग्नो जुह्वति प्राणदीपिते द्रव्येऽन्यासपो यज्ञा योगयज्ञास्तदा परे स्वाध्यायाज्ञानयज्ञश्च यतया संशितव्रता अपाने जुह्वति प्राणम् प्राणे अपानम् तदा परे प्राणापानगति रुद्ध्वा प्राणायामपरायणाः अपरे नियताहारा प्राणा प्राणेषु जुह्वति सर्वे क्रियते यज्ञविदो यज्ञम् शपितपदशा यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् नायं लोकोऽस्य यज्ञस्य कुतो ज्ञातुः सत्तमा एवं बहुविधा यज्ञा विदता ब्रह्मणो मुखे कर्मजानिति तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे श्रेयां प्रज्ञा मया यज्ञा ज्ञानयज्ञा परन्तपा सर्वान् कर्माभिरं पार्था ज्ञाने परिसमाप्यते तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेश्यन्ति ते ज्ञानम् ज्ञानिनः सत्त्वदर्शिनः यज्ञात्मानः पुनर्मोह एवं यास्यसि पाण्डव येन भूतान्यशेषेण रक्षस्यात्मन् गोमयी अभिचेतसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानाप्लवेनैव ऋजिनं सन्तरिष्यसि यदेयासि भस्मात् सात्कुरुते अर्जुन ज्ञानाग्नि सर्वकर्माणि भस्मसात् कुरुते तथा निर्ज्ञानेन सदृशं पवित्राभिः विद्यते तत् स्वयं योग संसिद्धा कालेनात्मनिन्दति श्रद्धवान् लभते ज्ञानं ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति अज्ञश्च अश्रद्धानश्च संशयात्मा विनश्यति नारायणोऽस्ति न परो न सुखं संशयात्मनः योगसंज्ञस्य कर्माणां ज्ञानसञ्चिन्न संशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जयम् तस्मासंज्ञानसम्भूतं हृत्सं ज्ञानासि आत्मनः चिद्वैनं संशयं योगम् आदिश्रोतिष्वभारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याय